येनाक्षर समान नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मैत्रीं नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यां पाणिनीय प्रवेशाय लघुसिद्धान्तकौमुदीं। गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। ओं नमः पाणिनिकात्याय पतञ्जलिभ्यः शब्दविद्या संप्रदाय प्रवर्तकेभ्यः मुनिभ्यः नमो महद्भ्यः नमो गुरुभ्यः। शंकराचार्याणां स्मरणं कृत्वा पुनः अस्य कक्षायाः आरम्भं कुर्मः। श्रुतिस्मृतिपुराणानाम् आलयं करुणालयं नमामि भगवत्पादशंकरं लोकशंकरम्। किञ्चिदिव पुनरावर्तनं कृत्वा अग्रे गच्छामः। रामशब्दस्य अजन्तपुल्लिङ्गप्रकरणे वयं स्मः लघुसिद्धान्तकौमुद्यां। रामशब्दस्य प्रक्रियायाः पाठः। रामशब्दस्य रमन्ते योगिनः अस्मिन् इति रामः इति व्युत्पत्तिः। रमुक्रीडायां धातोः घञ् प्रत्यये कर्णादिकरणयोश्च हलश्च एवं राम इति अथोपदायाः दीर्घः राम इति प्रातिपदिकसिद्धिः। राम इति प्रत्ययान्तशब्दसिद्धिः। प्रत्ययान्तत्वात् कृत्तद्वितसमासाश्च इत्यनेन तस्य प्रातिपदिकसंज्ञा। तदनन्तरं प्रथमाविभक्ति एकवचनविवक्षायां सु औजस् सुप्रत्यये आगते रामास् इति सुप्रत्यये कृते अनुबन्धलोपे उकारस्य इत्संज्ञा अस्ति। अनुबन्धलोपानन्तरं रामास् इति भवति। तदनन्तरं सषदुषोरुः इत्यनेन सकारस्य रुत्वम्। उपदेशे अजर्णास्कैत् इत्यनेन उकारस्य इत्संज्ञा अनुबन्धलोपः। तदनन्तरं रामः खरवसानिवर्विसर्जनीयः इति अवसाने स्थितरेफस्य विसर्गादेशः। एवं रामः इति प्रथमाविभक्त्यैकवचनरूपसिद्धिः। प्रथमाविभक्तौ द्विवचने व्यक्तिद्वयविवक्षायां द्विवचनविवक्षायां राम राम इति स्थिते स्वरूपाणामेकशेष एकविभक्तौ इति एकशेषः क्रियते। तदनन्तरम् औ इति द्विवचन प्रत्यये स्वीकृते प्रथमयोः पूर्वसवर्णः इति सूत्रस्य प्राप्ते तत्र प्रथमयोः पूर्वसवर्णः इत्युक्ते प्रथमयोः प्रथमाद्वितीययोः अचिपरे पूर्वसवर्णदीर्घः एकादेशः स्यात् इति सूत्रार्थः। एवम् अत्र प्रथमयोः पूर्वसवर्णः इति सूत्रस्य अत्र प्राप्तिः अस्ति। प्रथमयोः पूर्वसवर्णः इति सूत्रस्य प्राप्ते नादिचि इति इचिपरे अवर्णात् पूर्वसवर्णदीर्घः न भवति इति निषेधसूत्रस्य प्रवृत्ते एवमत्र निषेधे प्राप्ते। वृद्धिरेचि इति वृद्धिसन्धिः राम औ इत्यत्र वृद्धिरेचि इति वृद्धिसन्धेः प्राप्ते रामौ इति प्रथमाविभक्ति द्विवचनरूपसिद्धिः। तदनन्तरं कथाव्यक्ति बहुवचन विवक्षायां राम 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 इति स्थिते सरूपाणाम् एकशेष एक विभक्तौ इति एकशेषः तदनन्तरं राम जस् इति जस् प्रत्यये प्रथमाभक्ति बहुवचन जस् प्रत्यये स्वीकृते जस् इत्यत्र जकार जस् इति प्रत्यये जकारादिः विद्यते चुटु इति सूत्रेण चुटु इति सूत्रं किं वदति प्रत्ययाद्यौ प्रत्ययाद्यौ चवर्ग टवर्गौ इतः स्तः इति चुटु इत्यस्य अर्थः अत्र प्रत्ययादिः जस् अत्र जकारः प्रत्ययादिः अस्ति प्रत्ययादिवर्णः अस्ति एवं जकारस्य इत्संज्ञा भवति तदनन्तरम् अनुबन्धलोपे कृते राम अस् इति स्थिते प्रथमयोः पूर्वसवर्णः इति पूर्वसवर्णदीर्घः रामास् इति भवति रामास् इत्यत्र सषजुषोरुः इति ऋत्वप्राप्तिः रामार् अनन्तरं रामाः खरवसानयोर्विसर्जनीयः एवम् अत्र प्रथमाभक्ति बहुवचनरूपसिद्धिः तदनन्तरं संबोधन प्रथमाभक्ति एकवचन विवक्षायां हे रामासु इति सुप्रत्यये कृते हे रामासु इति भवति अत्र येन हस्वात् सम्बुद्धेः इति सकारलोपः सम्बुद्धिः नाम एकवचनं सम्बुद्धिः एकवचनप्रत्ययः सम्बुद्धिसंज्ञां लभते अतः येङ् हस्वात् सम्बुद्धेः सम्बुद्धेः परे येङ् यदि येङन्तः अस्ति ह्रस्वान्तः अस्ति तर्हि किं भवति सकारलोपः भवति अत्र ह्रस्वान्तात् अत्र हे राम इत्यत्र मकारः ह्रस्वान्तः अस्ति येङन्तः नास्ति अत्र ह्रस्वान्तात् सकारः सम्बुद्धिसकारस्य लोपः भवति एवं हे राम इति रूपसिद्धिः हे रामौ इति रूपसिद्धिस्तु प्रथमाभक्तिद्विवचनरूपसिद्धिवदेव हे रामाः इत्यत्रापि प्रथमाभक्ति बहुवचनरूपसिद्धिवदेव द्वितीयाभक्ति एकवचनविवक्षायाम् अमिपूर्वः इति सूत्रं विद्यते अत्र राम अम् इति द्वितीयाभक्ति एकवचनप्रत्यये विवक्षिते द्वितीयाभक्ति एकवचने विवक्षिते अम् इति प्रत्यये प्राप्ते राम अम् इति स्थितिः तदनन्तरम् अत्र अमिपूर्वः इति सूत्रस्य प्रवृत्तिः अत्र भवति अमिपूर्वः इति सूत्रस्य अर्थः अकः अमि अचि परतः पूररूपम् एकादेशः स्यात् अम् भवेत् अच् भवेत् पूर्वरूपम् एकादेशः भवति पूर्वरूपं नाम अकारः अकारः तदनन्तरम् अम् पूर्वरूपं नाम अकारः एवं किं भवति एक अकारः एव अवशिष्टः भवति रामम् इति भवति रामौ द्वितीयावक्ति द्विवचन रूप सिद्धि तो प्रथमावक्ति द्विवचनवत् एव भवति, परंतु तत्र क्वचित् भेदः विद्यते। कः सः भेदः इति वक्तुं शक्यते वा? प्रक्रियायां कश्चन भेदः विद्यते, लघु भेदः। कः वदति? शारदा भगिनी वदति वा? अवश्यम् अवश्यम्। द्वितीया विभक्ति राम औट् औट् इति प्रत्ययः समीचीनम्। तत्तु प्रश्नस्य समाधानं। तत्र महादेवन् महोदयः प्रश्नः पृष्टवान्, किमर्थम् औट् इति स्वीकारः, किमर्थम् औ इत्येव भवेत् इति सः प्रश्नं पृष्टवान्। तस्य उत्तरम् अस्माभिः सुडनपुंसकस्य इति सुट्प्रत्ययस्य सुट् इत्यत्र पञ्चप्रत्ययाः तत्र एकत्र आवश्यकं भवति, क्वचित् अन्यत्र सूत्रे आवश्यकं भवति, अतः अस्माभिः एवम् उक्तम्। परन्तु इदानीं प्रक्रिया कथम्? औट् इत्यत्र टकारः लोपः भवति वा? केन सूत्रेण? राम औट् इति भवति। राम औट् इत्यत्र हलन्त्यम् इति सूत्रेण औट् इत्यत्र टकारस्य लोपः। एवं किम् आगतम्? राम औ इति। तदनन्तरं प्रक्रिया समाना भवति। यथा प्रथमावक्ति द्विवचने प्रक्रिया अस्ति तथैव भवति। औट् इत्यत्र एकः एव सोपानं तत्र अधिकं भवति। औट् इत्यत्र हलन्त्यम् इत्यनेन हलन्त्यं तस्य लोपः, हलन्त्यम् इत्यनेन इत्संज्ञा, तस्य लोपः इत्यनेन लोपः। अस्तु, समीचीनम्। राम इदानीं द्वितीयाभक्ति बहुवचनम्। द्वितीयाभक्ति बहुवचने अत्र किं भवति? शस् इति प्रत्ययः भवति। एवं राम शस् इति कथम् आगच्छति? राम शस्तित्यत्र लशक्वतद्दिते इति सूत्रस्य प्रवृत्तिः। लशक्वसद्दिते अत्र लशकु अतद्दिते इति भवति। तद्दितवर्ज प्रत्ययाद्याः लशकवर्गाः लवर्गा इत स्यु इत्कर्ण से प्रयोजन लोप रामशस् इति द्वितीयाभक्ति बहुवचन विवक्षायां लशक्व तद्दिते इति सूत्रस्य प्रवृत्तिः राम अस् इति हि शकारस्य इत्संज्ञा भवति तस्य लोपः इत्यनेन राम अस् इति भवति तदनन्तरं प्रथमयोः पूर्वसवर्णः प्रथमयोः पूर्वसवर्णः किं करोति पूर्वसवर्णदीर्घं करोति प्रथमा द्वितीययोः प्रथमयोः पूर्वसवर्णः इत्यस्य सूत्रार्थः कः प्रथमा द्वितीययोः किं भवति अकः प्रथमा द्वितीययोः कोऽपि वदति वा सदगो हा सूत्रार्थः प्रथमः प्रथमयोः पूर्वसवर्णः इति सूत्रस्य सूत्रार्थः अकः प्रथमा द्वितीययोः अचि पूर्वसवर्णदीर्घः एकादेशः स्यात् तत्र एवं किमर्थं वक्तव्यम् इत्युक्ते सूत्रार्थस्य आवृत्तिः भवेत् अस्माकं मनसि सूत्रार्थस्य अतः यदा यदा सूत्रमागच्छति प्रथमम् एकवारं पठनेन सूत्रार्थः सम्यक् न उपतिष्ठति मनसि अतः अस्माभिः किं करणीयं पुनः पुनः सूत्रार्थस्य स्मरणं कर्तव्यं तत्र सूत्रे किं विद्यते मेनि कण्डिशन्स् आर् देर् तत्र नियमाः सन्ति तद् इदानीं किं भवति अस्माकं ब्रेन् कथं स्वीकारं करोति प्रथम इदानीम् एकवारं स्लैड् दर्शनेन एकवारं पाठेन सूत्रार्थस्य केचन अंशाः स्मरणं भवति इदानीं रामास् इत्यत्र प्रथमयोः पूर्वसवर्णः इति उक्ते पूर्वसवर्णः पूर्वसवर्णदीर्घः भवति इति ग्रहणं तु अवश्यं भवति सर्वे तत्तु स्वीकुर्वन्ति रामास् इति परन्तु तत्र कण्डिशन् किम् अस्ति अकः प्रथमाद्वितीययोः अक्वर्णानामेव प्रथमाद्वितीययोः एव अचिपरे एव पूर्वसवर्णदीर्घः भवति इत्यादि नियमाः अपि सन्ति तेषां नियमानां ग्रहणं यदा भवति यदा सूत्रार्थः सम्यक् अस्माभिः स्मर्यते अतः पुनः पुनः यदा सूत्रमागच्छति तदा अस्माकं कर्तव्यं किं भवति सूत्रस्य अर्थस्य आवृत्तिः एकवारं सूत्रार्थमुक्त्वा पुनः वक्तव्यं स्मर्तव्यं सूत्रार्थं स्मृत्वा अग्रे गन्तव्यम् इदानीं प्रथमयोः पूर्वसवर्णः अकः प्रथमाद्वितीययोः अचि पूर्वसवर्णदीर्घः एकादेशः स्यात् एवम् अत्र अक्वर्णः कः राम इत्यत्र अक्वर्णः अस्ति अस् अचिपरे प्रथमाद्वितीययोः प्रथमा एतद् द्वितीयाभक्तिः अस्ति अतः सर्वे नियमाः अत्र आगच्छन्ति मुत्तुलक्ष्मी ओ श्रूयते वा ओ अस्तु किमर्थम् अस्तु अतः रामास् राम अस् इति स्थिते प्रथमयोः पूर्वसवर्णः इत्यनेन पूर्वसवर्णदीर्घः तदनन्तरं किं भवति राम अत्र स्थितिः रामास् इत्येव स्थितिः अस्माकं रूपं तु रामान् अस्ति. कथं रामान्, सकारस्य कथं नकार प्राप्तिः इत्यादि जिज्ञासा विद्यते. इदानीं तदा उच्यते तस्माच्छसो नः पुंसि. तत्र तस्माच्छसो नः पुंसि तस्मात् इत्युक्ते कृतपूर्वसवर्णदीर्घात् परः कृतपूर्वसवर्णदीर्घात् परः तस्मात् इत्यत्र कृतपूर्वसवर्णदीर्घात् इति अर्थः स्वीकर्तव्यः. कृतपूर्वसवर्णदीर्घात् परः यः शसः सकारः विद्यते तस्मात् शसः नः पुंसि. शसः इत्युक्ते शस् प्रत्ययः. शसः इत्यत्र कः विभक्तिः? शसः इत्यत्र षष्ठीभक्तिः अस्तु. तस्मात् इत्यत्र पञ्चमीभक्तिः. तस्मात् कृतपूर्वसवर्णदीर्घात् शसः. शसः इत्युक्ते शसः षष्ठीभक्तिः. शसः नः भवति. पुंसि एव भवति, न तु स्त्रियां वा क्लीबे वा भवति. एवं शसः इत्यत्र षष्ठीस्थाने योगः विद्यते. अलोन्त्यस्य इत्यनेन शसः अन्त्यस्य नकारस्यैव अन्त्यस्य सकारस्यैव आदेशः. अत्र शस् इत्यत्र अन्त्य अल् सकारः अस्ति, तस्यैव आदेशः भवति अलोन्त्यस्य इत्यनेन. एवं रामास् इति भवति. रामास् इत्यत्र सकारः अन्त्य अल् अस्ति, अलोन्त्यस्य इत्यनेन अन्त्यस्य आदेशः भवति. षष्टीनिर्दिष्टस्य अन्त्यस्य अलः आदेशः भवति. अत्र षष्टीनिर्दिष्टः शसः. अलोन्त्यस्य इति सूत्रस्य अर्थः षष्टीनिर्दिष्टस्य अलः अन्त्यस्य आदेशः भवति. एवं रामान् इति आगच्छति. तत्र मध्ये नत्वप्रकरणम् आगतम्, तद् एकवारं स्मरामः. नत्वप्रकरणम् अत्र प्रश्नः उदेति. तत्र अट्कुप्वाङ्गुं व्यवायेपि वृषाभ्यां नोणसमानपदे सूत्रद्वयमस्माभिः पठितं. तत्र अट्कुप्वाङ्गुं व्यवायेपि इति सूत्रेण अत्र अन्तिमनकारस्य नकारः भवेत् इति प्रश्नः. तदा उच्यते पदान्तस्य नस्य नः न भवति. अत्र नकारः पदान्ते अस्ति, अतः तस्य णकारः न भवति इति निषेधः अस्ति. तदनन्तरं तृतीयाभक्त्यैकवचनरूपसिद्धिः. अत्र तृतीयाभक्ति एकवचनविवक्षायां कः प्रत्ययः स्वीक्रियते? तृतीयाभक्ति एकवचनप्रत्ययः ताभ्यां बिस् न, एकवचने कः प्रत्ययः? ता एव. तृतीयाभक्ति एकवचने ता एव स्वीक्रियते. सो राम ता ता अत्र राम ता इत्येव स्वीक्रियते. तृतीयाभक्ति एकवचने विवक्षिते राम ता इत्येव स्वीक्रियते. अत्र चुटु इति सूत्रं विद्यते. चुटु इत्यस्य अर्थः चुटु इत्यस्य सूत्रार्थः सम्यक् वक्तव्यः यथा लघुकौमुद्याम् यथा अस्ति तथैव तथैव वक्तव्यम् इत्संज्ञा भवति तत्र किं प्रत्ययाद्यौ चुटु इतौ स्तः प्रत्ययाद्यौ चुटु सम्यक् भवति सम्यक् समीचीनम् अत्र चुटु इत्यस्य सूत्रार्थः प्रत्ययाद्यौ चुटु इतौ स्तः इति स्मर्तव्यं सूत्रार्थः वृत्तिः स्मर्तव्यः तत्र सूत्रस्य लघुकौमुदी वृत्तिः इति भवति लघुकौमुदी वृत्तिः सूत्रार्थः एव वृत्तिः इति कथ्यते स एव वृत्तिः अस्माभिः स्मर्तव्यः विद्याभगिनी श्रूयते वा विद्याभगिनी श्रूयते वा विद्या रमेश भगिनी आगतवती सा सा किमपि वक्तुकामा अस्ति परन्तु क्वश्चन् मार्क् आगतम् चाट् कुत्र अस्ति क्वश्चन् मार्क् अस्तु विद्याभगिनी अत्र नास्ति प्रायः अस्तु रामटा एवं प्रत्ययाद्यौ चुटु इतौ स्तः इति अर्थं स्वीकृत्य अग्रे गच्छामः रामटा इति तत्र टकारस्य इत्संज्ञा तस्य लोपः इत्यनेन लोपः तदनन्तरं टाङ्गसिङ्गसामिनात् स्याः टाङ्गसिङ्गसाम् इन आत् स्याः इति पदच्छेदः टाङ्गसिङ्गसाम् ङसि इति पञ्चमीभक्ति एकवचनप्रत्ययः ङसाम् ङस् इति ओ एवं वा किमर्थं न श्रूयते तस्याः किमपि सौण्ड् कार्ड् मध्ये दोषः स्यात् ओ अस्तु अस्तु रेकार्डिङ्ग् तु स्थापयामः टाङ्गसि ङसाम् ङसाम् इत्यत्र षष्टिभक्ति एकवचनप्रत्ययः टाङ्गसिङ्गसाम् इन आत् स्याः इत्यादयः इनादयः इन आत् स्याः इत्यस्य इनादयः टाङ्गसिङ्गसाम् इत्यत्र टादीनाम् टादीनाम् क्रमात् इनादयः आदेशाः भवन्ति कदा भवति अतो भिस ऐस् इति अतः इति अनुवर्तते अतः अकारान्तादङ्गादेव भवति अकारान्तादङ्गादेव टादीनाम् इनादयः भवन्ति अतः टा इत्यस्य इन इति आदेशः टा इत्यत्र आ इत्यस्य इन इति आदेशः एवं रामेण इति आद्गुणः इत्यनेन रामेण इति स्थिते अत्र अट्कुप्वाङ् नुम व्यवायेपि इति नत्वप्राप्तिः एवं रामेण इत्यत्र नत्वप्राप्तिः भवति. तदनन्तरं तृतीया भक्ति द्विवचन विवक्षायां सुपिच इति सूत्रं विद्यते. अत्र तृतीया भक्ति द्विवचन प्रत्ययः कः इत्युक्ते रामभ्याम् इति तृतीया भक्ति द्विवचन विवक्षा यदा भवति भ्याम् इति प्रत्ययः स्वीक्रियते रामभ्याम् इति स्थिते. भ्याम् अत्र सुपिच इति सूत्रस्य प्रवृत्तिः. सुपिच सूत्रस्य अर्थः कः इत्युक्ते ययादौ अतो दीर्घ अतो सुपिच इति सप्तमाध्यायस्य तृतीयपादस्य द्व्यधिक एकशततमं सूत्रम्. अत्र सुपिच इत्यत्र अतो दीर्घो ययि इति सूत्रात् ययि इति अनुवृत्तिः अस्ति. अष्टाध्यायीं पश्यन्तु ययि इति सूत्रस्य अनुवृत्तिः अस्ति. एवं सुपिच ययि ययि इत्युक्ते सप्तमी विभक्तिः ययादौ ययि पर ययादौ सुपि परे किं भवति. अतः अङ्गस्य दीर्घः भवति. अतो दीर्घो ययि इत्यत्र अतः दीर्घः ययि सर्वम् सर्वस्य अनुवृत्तिः भवति. अतः अङ्गस्य किं भवति दीर्घः भवति. एवं ययादौ सुपि परे अतो अङ्गस्य दीर्घः स्यात्. इदानीं भ्याम् इति ययि अत्र भकारः ययि वर्णः. माहेश्वरसूत्रेषु भकारः ययि वर्णः. एवं ययि परे ययादौ सुपि भ्याम् इत्यस्य गुणद्वयं भवेत्. यदि राम इति अङ्गस्य अन्तिम अकारस्य दीर्घः भवितव्यं सुपिच इति सूत्रानुसारेण भ्याम् इत्यस्य गुणद्वयं भवेत्. सुपि परे सुप्त्वं भवेत् सुप्रत्ययः भवेत् भ्याम्. इदानीं भ्याम् सुप्रत्ययेषु एकः वा न वा. सुप्रत्ययेषु एकः. अतः सुपि परे भ्याम् इति सुप्रत्ययः अस्ति. सुपि परे अतो अङ्गस्य. अतो अङ्गस्य नाम अतः नाम तपरकरणं. तपरकरणं नाम ह्रस्व अकारस्य ह्रस्व अकार अङ्गस्य. अङ्गस्य नाम यस्मात् प्रत्ययविधि तदादि प्रत्ययङ्गम्. अत्र राम इति अङ्गम्. राम इति अकारान्त अङ्गस्य ह्रस्व अकारान्त अङ्गस्य दीर्घः भवति. सुपि परे भवति ययादौ. सुप्वपि भवेत् ययादिः अपि भवेत् तदा एव दीर्घः भवति इति गुणद्वयम् इति नियमद्वयम् आवश्यकम्. किमर्थम् अग्रे एतत् आवश्यकं भवति. चतुर्थी विभक्तौ अपि आवश्यकं भवति. अतः सुपि च इति सूत्रस्य अर्थं सम्यक् अस्माभिः ज्ञातव्यम्. ययादौ सुपि परे अतो अङ्गस्य दीर्घः स्यात् रामाभ्याम् इति स्थितिः. तदनन्तरम् अत्र कोऽपि संशयः अस्ति वा रामाभ्याम् इत्यत्र. रामाभ्याम् इति रूपमेव इति प्रक्रिया एव तृतीया चतुर्थी पञ्चमी विभक्ति द्विवचने सर्वत्र समानं भवति. अतो भिस ऐस्. इदानीं तृतीया विभक्ति बहुवचनविवक्षायाम् अतः भिसः ऐस्. अतः इति पञ्चमी विभक्ति एकवचनम्. इदानीं प्रायः एतत् सूत्रं समापितवन्तः, परन्तु पुनः एतत् सूत्रं पुनः पठामः. अतो भिस ऐस् इति कुत्र विद्यते? सप्तमाध्याये प्रथमपादे विद्यते. अतो भिस ऐस् अत्र अङ्गाधिकारः विद्यते. अङ्गाधिकारः कुतः आरभ्यते, कुतः कुत्र कुत्र अङ्गाधिकारः? अङ्गस्य इति सूत्रं षष्टाध्यायस्य चतुर्थपादस्य प्रथमं सूत्रम् अङ्गस्य इति भवति. कृपया अष्टाध्यायीं स्वीकुर्वन्तु. तत्र अष्टाध्यायी मध्ये अङ्गस्य इति सूत्रस्य पार्श्वे का संख्या विद्यते? अङ्गस्य इति सूत्रस्य पार्श्वे का संख्या विद्यते? अष्टाध्यायी अस्ति वा? अङ्गस्य इति सूत्रं कुत्र विद्यते? षष्टाध्यायस्य चतुर्थपादे विद्यते. चतुर्थपादे प्रथमं सूत्रम् सेवेन् फोर् नैन्टि सेवेन् पर्यन्तम् अङ्गस्य इति अधिकारः विद्यते. एतत् एकः प्रधानः अंशः. अत्र अङ्गाधिकारः षष्टाध्यायस्य चतुर्थपादात् सप्तमाध्यायस्य चतुर्थपादस्य सप्तनवतितमसूत्रपर्यन्तम् अङ्गाधिकारः विद्यते. अत्र सर्वाणि सूत्राणि कार्याणि विधिसूत्राणि यदि कार्यं सूचयन्ति अङ्गस्यैव कार्यं भवति. अङ्गस्यैव कार्यं भवति. अतः अङ्गाधिकारः इट् इस् वन् आफ् दि मोस्ट् इम्पार्टेण्ट् अधिकारस्. अङ्गस्य इति अत्रापि अधिक्रियते. अधिक्रियते नाम अधिकारसूत्रम् अङ्गस्य इति अधिकारसूत्रात् अङ्गस्य इति स्वीक्रियते. अत्र अतो विस ऐस् इत्यत्र पदत्रयं विद्यते. अतः इत्यत्र पञ्चमी वा भवतु षष्टी वा भवितुमर्हति, परन्तु अत्र पञ्चमी एव व्याख्यानात् स्वीक्रियते. भिसः इत्यत्र षष्टीवक्ति एकवचनं स्वीक्रियते. ऐस् इत्यत्र प्रथमाभक्ति एकवचनं स्वीक्रियते. इदानीं सूत्रार्थः कः? अतः भिसः ऐस् अङ्गस्य इति अस्ति. इदानीम् अतः इति पञ्चमी अस्ति. अतः अङ्गस्य इति अधिकारः पञ्चम्या विपरिणम्यते. अङ्गस्य इति शब्दम् अत्र अस्मिन् सूत्रे यदा आगच्छति किं भवति तस्य स्वरूपम्? अङ्गस्य अङ्गात् इति भवति. किमर्थं विपरिणामः भवति? यतोहि अङ्गस्य अकारान्तादङ्गात् इति अकारान्तं विशेषणविशेष्यभावः अस्ति. अङ्गं भवेत् अकारान्तं भवेत्. अङ्गं विशेष्यम् अकारान्तम् अतः इति विशेषणम्. यथा कृष्णः सर्पः इति विशेष्यविशेषणभावः अस्ति, तथैव अकारान्तादङ्गात् इति अङ्गस्य इति अधिकारशब्दः अत्र पञ्चमीविभक्तौ विपरिणम्यते. एवम् अधिकार अनुवृत्तौ इदानीं किं ज्ञातम् अस्माभिः? अधिकारः अनुवृत्तिः यदा भवति तदा विभक्तिविपरिणामः कुत्रचित् अवश्यं भवति. कुत्रचित् भवति, कुत्रचित् न भवति, तत्तु सूत्रं दृष्ट्वा ज्ञातव्यं भवति. विभक्तिविपरिणामः कर्तुं शक्यते, अवश्यं कर्तव्यं. विभक्तिविपरिणामः भवितुमर्हति इति अंशम् अस्माभिः अनेन ज्ञातम्. पाणिनिः सर्वं स्वयं किमपि न वदति सः. स सह सूत्राणि एव प्रणिनिनाय तदनन्तरं एताः सर्वाः अंशाः अस्माभिः वि शुड् डिरैव् आल् दीस् आस्पेक्ट्स् विच् हि इस् ट्रैङ्ग् टु टेल् इदानीम् अतोभिस ऐस् इत्यत्र अकारान्त अतः इत्यत्र तपरकरणमस्ति अतः ह्रस्व अकारान्तादेव अङ्गात् भिसः परस्य ऐस् भवति इदानीं प्रश्नः आगच्छति भिसः ऐस् इत्युक्ते अस्माभिः किं क्रियते भिस् इति अस्ति तत्र ऐस् इति करणीयं तत्र सामान्यतः भिसः इति षष्ठी अस्ति षष्टीनिर्दिष्टस्य अन्त्यस्य अलः आदेशः भवति एवम् अलोन्त्यस्य इति सूत्रस्य प्रवृत्तिः अत्र भवति अलोन्त्यस्य इति सूत्रस्य प्रवृत्ति यदि सूत्रस्य प्रवृत्तिः भवति तदा भिसः सकारस्य एव ऐस् आदेशः तदा किं भवति राम भि ऐ इत्युक्ते भि ऐ इत्युक्ते इ ऐ भवति इ ऐ इति यदा भवति तदा किं भवति इ ऐ इति यदि भवति चेत् यण् सन् ये भवति वा इ ऐ इत्युक्ते यण् सन्धिः यकारः रामः भ्यैस् इति भवति रामभ्यैस् इति स्यात् परन्तु तद् अनिष्टं रूपम् अस्माकं रूपं किम् आवश्यकं रामैः इति आवश्यकम् इदानीं तत्र रूपार्थम् एवं न क्रियते तत्र अलोन्त्यस्य इति सूत्रस्य प्रवृत्तिः अस्ति अलोन्त्यस्य इति उत्सर्गसूत्रं तत्र अपवादसूत्रं विद्यते आदेःपरस्य इति आदेःपरस्य इति अपवादसूत्रम् अपि अत्र आगच्छति किं भवति आदेःपरस्य इति भिसः आदिवर्णः कः भकारः हा भकारस्य स्थाने ऐस् भवतु इति आदेःपरस्य इति सूत्रमागत्य भकारस्य इदानीं अलोन्त्यस्य इति प्रथमम् अलोन्त्यस्य प्राप्तिः उत्सर्गसूत्रस्य प्राप्तिः इदानीं पर नित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः पर नित्य अन्तरङ्ग अपवाद यदि परस् इदानीं यदि तुल्यबल सूत्रेषु तुल्यबलम् अस्ति चेत् तदा परसूत्रं स्वीक्रियते परन्तु परनित्यं नित्यसूत्रं नित्य अन्तरङ्ग एतस्य एतत् वक्तुम् अवकाशः नागतः इदानीं नित्य अन्तरङ्ग इत्यादि विषयं वक्तुम् अवकाशः नागतः परन्तु अपवादः आङ्ग्लभाषायाम् एक्सेप्शन् इति उच्यते उत्सर्गः नाम सामान्यः सर्वत्र उत्सर्गः कामन् रूल् जनरल् रूल् सर्वत्र प्रवृत्तिः तस्य भवति यदा कण्डीशन्स् अप्लै इदानीम् उत्सर्गस्य बाधं कृत्वा अपवादस्य प्रवृत्तिः उत्सर्गापवादन्यायेन एव पाणिनिः अष्टाध्यायीं कृतवान् नो चेत् सर्वत्र तेन एकः तेन बहवः तन्त्राः नाम टेक्निक्स् तन्त्राणि techniques he has adopted lot of techniques in arranging the sutras in the ashtadhyayi tatra sutranam krama visaye saha bahunam tantranam upayogam krutavam teshu ekaha tantra asmabhi purvatra siddham iti adhitam ekaha anyaha tantra ఉత్సర్గ అపవాద తంత్ర. కదాచిత్ సహ కిం కరోతి, ఉత్సర్గ సూత్రం ప్రథమం వక్ష్యతి, తదనంతరం అపవాద సూత్రం వక్ష్యతి. కదాచిత్ అపవాదం ప్రథమం ఉక్త్వా ఉత్సర్గం వక్ష్యతి. తత్ ప్రకరణశః అస్మాభిః, కుత్ర అపవాదః కుత్ర ఉత్సర్గః ఇతి ప్రకరణశః అష్టాధ్యాయీ పఠనేన ఏవ జ్ఞానం భవతి. ఏతాదృశ లఘుకౌముదీ వా సిద్ధాంతకౌముదీ వా పఠనేన ఉత్సర్గ అపవాద న్యాయస్య సమ్యక్ అవగమనం కించిత్ క్లేశః ఏవ. తథాపి ఉచ్యతే, కిం అస్తి కథమస్తి ఇతి తథాపి ఉచ్యతే అస్మాభిః. అత్ర అలోంత్యస్య ఇతి సూత్రస్య ఆదౌ ప్రవృత్తిః. అలోంత్యస్య సూత్రం బాధిత్వా ఆదేః పరస్య ఇతి సూత్రస్య ప్రవృత్తిః పునః భవతి. ఆదేః పరస్య ఇతి సూత్రస్య అర్థః కః? ఆదేశ పరస్య ఇది సూత్రస్య అర్థ కఘుకౌముద్యమా? పరస్య యద్విహితం కార్యం తత్తస్య ఆదేర్బోధ్యం. కుత్ర అస్తి తత్ సూత్రం? పరిభాష అస్తు అత్ర లఘుకౌముద్యాం కుత్ర అస్తి? పరిభాషా సూత్రం ఏతత్ లఘుకౌముద్యాం కుత్ర అస్తి? వ్యంజనసంధి ప్రకరణే ఝరోఝరి సవర్ణే తత్ర ఝరోఝరి సవర్ణేన ఉదస్తా స్తంభో పూర్వస్య ఇతి అస్మాభిః అధీతం. తత్ర తత్ర ఉదస్తా స్తంభో పూర్వస్య అత్ర ఇదానీం పక్షాద్ ఊర్ధ్వం అవయ్యాకరణః ఇతి అస్తి. యది ఏకపక్షమపి అస్మాభిః వ్యాకరణ పాఠః త్యజ్యతే. ఏకపక్షః నామ 15 డేస్. ఇఫ్ యు స్టాప్ స్టడీయింగ్ గ్రామర్ వి విల్ ఆల్ బికమ్ అవయ్యాకరణస్. వి విల్ ఫర్ ఎవ్రీథింగ్ విల్ ఫర్గెట్. వి విల్ ఫర్గెట్ ఈవెన్ వృద్ధి రేచి ఆల్సో విల్ ఫర్గెట్. వృద్ధి రాధేచ్ ఆల్సో విల్ ఫర్గెట్. అకస్తవర్ణే దీర్ఘ ఆల్సో విల్ ఫర్గెట్. దట్ ఈస్ వాట్ ఈస్ వ్యాకరణం. ఇట్ ఈస్ హైలీ వోలటైల్. పెట్రోల్ వద్ భవతి, పెట్రోల్ యదా స్థాప్యతే పెట్రోల్ కిం భవతి? వోలటైల్ సబ్స్టెన్స్ అస్తి. ఇట్ గెట్స్ ఎవాపరేటెడ్. తథా వ్యాకరణం. పక్షాద్ ఊర్ధ్వం అవయ్యాకరణ, క్షణాద్ ఊర్ధ్వం అతార్కిక. ఏ తర్కశాస్త్ర విద్వాన్ ఎవ్రీ మినిట్ ఇన్ హిస్ మైండ్ తర్క షుడ్ బి రొటేటింగ్. అవచ్ఛేదక అవచ్ఛేదక అవచ్ఛిన్న ఇత్యాది శబ్దాః తస్య మనసి సదా భవేత్. తదా ఏవ సహ తార్కిక. వైయాకరణ తు అష్టాధ్యాయీ పారాయణం మినిమం అవుట్ ఆఫ్ మినిమం కరణీయం. యది వ్యాకరణ పాఠః నామ సూత్రపాఠః గణపాఠః వృత్తిపాఠః ఇత్యాది ఆవృత్తిః ప్రతిదినం 15 మినిట్స్ 10 మినిట్స్ కిమపి కరణీయమేవ. యది న క్రియతే తర్హి సర్వస్య విస్మరణం భవతి. మమాపి భవతి యది అహం 15 దినాని వ్యాకరణ పుస్తకం న స్పృశామి తర్హి మమాపి విస్మరణం భవతి. కిముత ఛాత్రాణాం సర్వేషాం ఛాత్రాణాం అధ్యాపకానాం శాస్త్ర అధ్యేతృణాం సర్వేషాం విస్మరణం భవతి. వెరీ వెరీ ఇంపార్టెంట్ ఇన్ వ్యాకరణ శాస్త్రం వెన్ వి ఆర్ స్టడీయింగ్ శాస్త్ర కంటిన్యూటీ. అతయేవ పాఠః అస్మాభిః క్రియతే. తత్ర శుల్కం స్వీకృత్య పాఠ కరణేన లాభః కిమపి నాస్తి. నిశుల్కం వా భవతు శుల్కం వా భవతు పాఠ కరణీయః ఇతి పాఠ క్రియతే. యది క్రియతే ఏవ తదా ఏవ स्मरणं भवति, यदि न क्रियते तर्हि विस्मरणमेव। तत्र शास्त्रस्य शास्त्रतक तमिल भाषायां वदन्ति, சாஸ்திரத்துக்கு ரெண்டு பேர் சத்ரு, சாஸ்திரம் படிக்கிறவாளுக்கு ரெண்டு பேர் சத்ரு சாஸ்திரத்துக்கு. ஒன்னு பூர்வாவலோகனம் பண்ணாத குரு, யதி அகம் பூர்வாவலோகனம் வினா கக்ஷாம் பிரவிசாமி தர்ஹி அகம் சாஸ்திரஸ்ய சத்ரு அஸ்மி, யதோஹி சாஸ்திர பிரதிபாதன சமயே சம்யக் பிரதிபாதனம் அவசியகம். சர்வேஷாம் அம்சானாம் தத்ர கிளாரிட்டி ஆஃப் தாட் ஆவசியகம். கிளாரிட்டி ஆஃப் தாட் பூர்வாவலோகனேன குருஹு பூர்வாவலோகனம் கிருத்வைவ கக்ஷாம் பிரவிஷேத். சாத்ரஹ பராவலோகனம் ந கரோதி, பராவலோகனம் அக்ருத்வா யதி அக்ரிம கக்ஷாம் பிரவிசதி சாத்ரஹ சாஸ்திரஸ்ய சத்ருஹ அஸ்தி. ஏவம் சாஸ்திரஸ்ய சத்ரு த்வௌ, பூர்வாவலோகனம் யஹ ந கரோதி, யஹ குருஹ பூர்வாவலோகனம் ந கரோதி சஹ சாஸ்திரஸ்ய சத்ருஹ பவதி. யஹ சிஷ்யஹ சாத்ரஹ சாத்ரா பராவலோகனம் ந கரோதி ஸா சாஸ்திரஸ்ய சத்ருஹ பவதி. ஏவம் சத்ருஹ நாம கிம், சத்ருஹ நாம க்ஷீணதாம் பாடே ஆகச்சதி. சாத்ரா வா சாத்ரஹ, ஓ ஐ எம் நாட் அண்டர்ஸ்டாண்டிங் திஸ் பாயிண்ட், ஐ இட் சீன்ஸ் ஐ ஹவ் ஃபர்காட்டன் திஸ், ஓ இதி சஹ சிந்தயதி, யதா சிந்தயதி ததா கிம் பவதி தஸ்ய சம்யக் அவகமனம் ந பவதி. யாவத் சக்தி குருஹு புனராவர்த்தனம் கரோதி பரந்து ததாபி பராவலோகனம் அவசியகம். ஏதத் சாஸ்திர நியமஹ பவ, இதானீம் இஃப் வி ஸ்டடி சாஸ்திரா without purvavalokana of guru and paravalokana of shishya, then we are doing something wrong. That is what our gurus and our purvajas have said. And vyakarana especially, 50, it is not Vedanta. If Vedanta is there, chitta shuddhihi sarvatra chitta shuddhihi கர்மாச்சரணம் சித்தசுத்தி, சித்தசுத்தி அனந்தரம் காமக்ரோதாதி நாச, காமக்ரோதாதி நாச அனந்தரம் ஆத்மஜானம், ஆத்மஜானே லீனா யதா பவதி ததா சுத்த புக்த ஸ்வபாவஹ பவதி, அனந்தரம் ஏவமேவ சஹ சமாதிஸ்திதிம் ப்ராப்னோதி ஸ்தித ப்ரஜ்ஞஹ பவதி அனந்தரம் மோக்ஷம் ப்ராப்னோதி இதி, ஏதத் விஷயமேவ ஸ்வீகிருத்ய சர்வத்ர வக்தும் சக்யதே யத்கிமபி பவது வேதாந்தே அத்வைத வேதாந்தே ஏவம் வக்தும் சக்யதே. பரந்து வியாக்கரணே ததா நாஸ்தி, வியாக்கரணே அஸ்மாபிஹி சூத்ரம் ஸ்மர்த்தவ்யம், சூத்ரார்த்தஹ ஸ்மர்த்தவ்யஹ, ஏவம் அத்ர அஸ்மாகம் கார்யம் கிமபி அஸ்தி. வயம் பஞ்சஜனாஹ வா பவந்து ஷட்ஜனாஹ வா பவந்து கக்ஷாம் யதி ஆகச்சாமஹ மம க்ருபயா பவதாம் பிரயோஜனம் சதா பவேத் இதி ஆஷயா அஹம் வதாமி. தத்ர ஐ அம் நாட் ஆர்டரிங், ஐ அம் நாட் டெல்லிங், வாட் எவர் ஏஜ் யூ ஆர், யூ ஹாவ் டு ரிவைஸ் அண்ட் கம் 15 மினிட்ஸ் பிஃபோர் கிளாஸ் வாட் ஹேப்பன்ட் இன் ப்ரீவியஸ் கிளாஸ். யதி ரிவிஷன் ந க்ரியதே தர்ஹி பவதாமேவ க்லேஷஹ பவதி. அஹமபி யதா வென் பிஃபோர் ஐ கம் டு த கிளாஸ், if I don't get that 1 hour revision before entering the class, I actually do not take the class. One of the reasons for cancelling, that mail came from Mahadevan, last minute you are telling. Many times 9 o'clock I have come home but I have not taken the class. I can straight away start the class, but if I am, though I know the sutra, I have studied Siddhanta Kaumudi, I know it, still if I don't get that 15 or half an hour, minimum half an hour purvavalokana time, I will not enter the class, I will not take the class. Yeshaha eva asmakam guravaha evam kurvantisma te tatra mahabhashyadi patham నిదర్గలతయా పుస్తకం వినా తే వక్తుం అర్హాః తాదృశాః గురవః సోతి నాగరాజవర్యాః మహాబలేశ్వర భట్టాదయః తాదృశ గురవః తేషాం పుస్తకాపేక్షా ఏవ నాస్తి పుస్తకస్య సర్వే పంక్తయః సర్వాః పంక్తయః తేషాం మనసి విద్యతే తథాపి తే పూర్వావలోకనం కృత్యై కృత్వైవ పాఠయంతి. ఆఫ్టర్ 30 ఇయర్స్ ఎక్స్పీరియన్స్ అతః మయాపి ఏవమేవ క్రియతే యథాశక్తి తేషాం సదృశం న యథాశక్తి క్రియతే. ఇదానీం కిమర్థం ఏషః విషయః ఆగతః ఇత్యుక్తే అలోంత్యస్య ఇతి సూత్రస్య అర్థః కుత్ర అస్తి. అలోంత్యస్య ఇతి ఆదేఃపరస్య ఇతి సూత్రస్య అర్థః కుత్ర అస్తి. తత్ర ఉదస్తాస్తంభో పూర్వస్య ఇతి వ్యంజనసంధి ప్రకరణే యదా అస్మాభిః అధీతం తదా పాఠితః ఇతి మమ స్మరణం అస్తి. పునః ఉద్ఘాట్య పశ్యామి తత్ర అస్తి వా ఉదస్తా అస్తి వా ఉదస్తా తస్మాదిత్యుత్తరస్య ఆదేఃపరస్య. ఇదానీం ఆదేఃపరస్య ఇతి సూత్రస్య అర్థః కః దృష్ట్వై వదతు పరస్య యద్విహితం పరస్య యద్విహితం కార్యం తత్ బోధ్యం. ఇదానీం భకారస్య భకారః అత్ర ఆదివర్ణః అస్తి. ఇదానీం పరస్య కార్యం విహితం దిశ ఐస్ ఇది పరస్య కార్యం విహితం తత్ తస్య ఆదేర్బోధ్యం. ఐస్ ఇది ఆదేశ కార్యం భిస్ ఇది భకార ఆదివర్ణస్య ఆదేహ భవే భవతు ఇది ఆదేఃపరస్య సూత్రం ఆగచ్చతి. అలోంత్యస్య ఇది సూత్రం ఆగత్య కిం వదతి ఉత్సర్గరూపేణ అలోంత్యస్య కర్తుం శక్యతే. ఆదేఃపరస్య ఇది అపవాద సూత్రం అస్తి అలోంత్యస్య ఇది సూత్రస్య. అలోంత్యస్య సూత్రం ఆగత్య ఆదేఃపరస్య వదతి నానా తవ కార్యమత్ర నా అత్ర విశేష కార్యమస్తి భవాన్ గచ్చతు ఇది వదతి. అస్తు అహం గచ్చామి ఇది అలోంత్యస్య ఇది సూత్రం నిర్గచ్చతి. ఆదేఃపరస్య వదతి మమ కార్యం అత్ర అస్తి ఇది దిశ అత్ర భకారస్య ఐస్ ఆదేశ కర్తుం ప్రయతతే ఆదేఃపరస్య. తదా అనేకాల్షిత్ సర్వస్య ఇది సూత్రం ఆగచ్చతి. అనేకాల్షిత్ సూత్రస్య ఇది సూత్రం ఆగత్య కిం వదతి అత్ర ఆదేశః అనేకాల్షిత్ సర్వస్య. అత్ర యది ఆదేశః అనేకాల్ భవతి యది ఆదేశః అనేకాల్ భవతి తదా అత్ర ఐస్ ఇతి ఆదేశః అనేకాల్ అస్తి. యది ఆదేశః అనేకాల్ అస్తి తర్హి మమైవ కార్యం ఇతి అనేకాల్షిత్ సర్వస్య ఇతి సూత్రం వదతి. అనేకాల్షిత్ సర్వస్య ఇతి సూత్రస్య అర్థః కః కుత్ర అస్మాభిః పఠితం. అనేకాల్షిత్ సర్వస్య సర్వత్ర విభాషా గో అవన్ స్ఫోటాయనస్య ఇత్యాది అస్మాభిః పఠితం. తత్ర అనేకాల్షిత్ సర్వస్య తత్ర పఠితం అస్మాభిః అనేకాల్షిత్ సర్వస్య ఇది సూత్రమాగత్య కిం వదతి మమ కార్యమత్ర అహం యదా అనేకాల్ అస్తి తత్ర మమే మమైవ కార్యం ఇది అనేకాల్షిత్ సర్వస్య ఇది సూత్రం ఆదేఃపరస్య ఇది సూత్రస్యాపి అపవాదాత్మకం సూత్రం. ఇదానీం ఏషాం సూత్రాణాం మధ్యే ఉత్సర్గ అపవాద భావః అస్తి యదస్తి తద్ కథం అస్తి ఇది సుజాత భగిని పృష్టవతి. తదా అస్మాభిః कक्षायाः कक्षायाः समाप्तिः समयः आसीत् अहं तस्य प्रश्नस्य समाधानं न दत्तवान् एतत् समाप्य तस्यैव समाधानम् अवश्यं वदामि इदानीम् अनेकाल्त्वात् सर्वादेशः अत्र सर्वादेशः अनेकाल्त्वात् एवं रामैस् रामाभिस् इति बिस् एण्टैर् बिस् गेट्स् रीप्लेस्ड् वित् ऐस् अनेकाल्त्वात् सर्वादेशः रामैस् इति भवति रामैस् इत्यनन्तरं तदनन्तरं तु ज्ञायते सहर्षोरुः करवसानयोर्सर्जनीयः इदानीं प्रश्नः सुजाता भगिन्याः प्रश्नः एवमस्ति एतत् एकवारं प्रथमाध्यायस्य प्रथमपादं स्वीकुर्वन्तु अष्टाध्यायीमध्ये प्रथमाध्यायस्य प्रथमपादं स्वीकुर्वन्तु तत्र अलोन्त्यस्य इति सूत्रं द्विपञ्चाशत्तमं सूत्रम् अलोन्त्यस्य अलोन्त्यस्य इति उत्सर्गसूत्रं तदनन्तरं निच्च इति सूत्रं विद्यते आदेः परस्य अनेकाल्षित् सर्वस्य एतेषां चतुर्णामेव उत्सर्गापवादभावः अस्ति अति सर्वोत्सर्गः अलोन्त्यस्य सर्वोत्सर्गः अलोन्त्यस्य सर्व अपवादः सर्वेषाम् अपवादः नित् निच्च सो निच्च इस् अपवाद टु इवन् अनेकाल्षित् सर्वस्य सो अलोन्त्यस्य उत्सर्गसूत्रम् आदेः परस्य तस्मात् किञ्चित् अपवादसूत्रम् अनन्तरम् अनेकाल्षित् सर्वस्य अनन्तरं निच्च सो अत्र फ्लोचार्ट् यदस्ति इट् इस् इन् द रिवर्स् आर्डर् अपवादसूत्रं फस्ट् लेट् अस् टेक् एन् एक्सेप्शन् अण्ड् अस्माभिः गुणवृद्धि ह्रस्वदीर्घप्लुतभिन्न आदेशः यदा यदा क्रियते अत्र कः आदेशः रामशब्दे ऐस् आदेशः गुणादेशः वा नास्ति वृद्धि आदेशः वा नास्ति ह्रस्व आदेशः वा नास्ति दीर्घ आदेशः वा नास्ति प्लुतभिन्न प्लुत आदेशः वा नास्ति आदेशः कः ऐस् आदेशः ऐस् इति कः आदेशः वर्णात्मक आदेशः अनेकवर्णात्मक आदेशः कुत्र उक्तं प्रमाणं किं पाणिनिना उक्तम् अतो भिस ऐस् इति इदानीम् ऐस् स्वीकृत्य अस्माभिः नीत्वा अनीत्वा इति प्रथमं द्रष्टव्यं यदि नित् अस्ति चेत् नित् निच्च इति अन्तादेशः करणीयः सर्वत्र निच्च इति अन्तादेशः करणीयः यदि अनित् अस्ति चेत् तदा एव अग्रे गन्तव्यम् यदि अनित् अस्ति चेत् एकाल् वा अनेकाल् वा इति द्रष्टव्यम् यदि अनेकाल् अस्ति तदा अनेकाल्षित् सर्वस्य इति सर्वादेशः तत्रापि अनेकाल्षित् सर्वस्य इत्यस्मिन् सूत्रे अनेकाल् अपि भवितुमर्हति षित् अपि भवितुमर्हति तयोर्मध्ये एव भेदः अस्ति यदि अनेकाल् अस्ति किं भवति अनेकाल्त्वात् सर्वादेशः भवति यदि एकाल् यदि षित् अस्ति यदि षित् अस्ति तर्हि षित्वात् आदेशः भवितुमर्हति तदेव यदि षित् अस्ति तदा षित्वात् आदेशः इदमैष्यति इदं शब्दस्य रूपं यदा ज्ञायते तदा पठामः इदानीम् अग्रे आदेशपरस्य इति आदिवर्णस्य परस्य यद्विहितं कार्यं यदि परस्य विहितं कार्यमस्ति तदा आदेशपरस्य इति सूत्रस्य प्रवृत्तिः तदनन्तरं यदि एतेषां सूत्राणां प्रवृत्तिः न स्यात् अलोन्त्यस्य इति उत्सर्गसूत्रस्य प्रवृत्तिः एवम् अस्य क्रमः बट् दि परनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः See here we should not see the number of the sutra and try to say which is apavada para sutram kada drishyate para is a technique used by Panini vipratishede parankaryam vipratishede parankaryam tada bhavati yada tulya bala sutrayoho madhye tulya bala virodha bhavati విప్రవిషేదే పరం కావ్యం. నిత్యసూత్రం, నిత్యసూత్రస్య విషయే అనంతరం వక్ష్యామి. ఏమేవ అంతరంగ సూత్రం బహిరంగ సూత్రం ఇది అస్తి, అంతరంగ బహిరంగ న్యాయ ఇది అస్తి. తదపి యదా ఆగచ్చతి తదా ఏవ వక్తుం శక్యతే, ఇదానీం న వక్తుం శక్యతే. ఇదానీం పర నిత్య అంతరంగ, నిత్య ఈజ్ ఆల్సో ఎ టెక్నిక్, నిత్య సూత్ర అనిత్య సూత్ర. నిత్య ఈజ్ పర్మనెంట్, అనిత్య ఈజ్ టెంపరీ. సో దట్ పర్మనెంట్ టెంపరీ నిత్య అనిత్య కాన్సెప్ట్ ఈజ్ ఆల్సో దేర్. ఏవం అంతరంగ బహిరంగ న్యాయ, దట్ ఈజ్ ఆల్సో ఎ సపరేట్ న్యాయ విచ్ వీ హ్యావ్ టు డిస్కస్ లేటర్. బట్ పర ఈజ్ ఎ టెక్నిక్, బిట్వీన్ పర టెక్నిక్ అండ్ నిత్య టెక్నిక్ అండ్ అంతరంగ టెక్నిక్ అండ్ అపవాద టెక్నిక్ ఉత్తరోత్తరం బలీయ. అంతరంగ టెక్నిక్ ఈజ్ ద, ఇఫ్ అంతరంగ టెక్నిక్ ఎగ్జిస్ట్ అండ్ పర టెక్నిక్ ఆల్సో ఎగ్జిస్ట్, విచ్ టెక్నిక్ వీ హ్యావ్ టు యూస్ అకార్డింగ్ టు ద నియమ? పర నిత్య అంతరంగ అపవాదానాం ఉత్తరోత్తరం బలీయ. ఉత్తరోత్తరం నామ కిం? పర ఈజ్ సి పర టెక్నిక్, నిత్య టెక్నిక్, అంతరంగ టెక్నిక్, అపవాద టెక్నిక్. ఓకే, నిత్య టెక్నిక్ ఈజ్ స్ట్రాంగర్ దాన్ పర టెక్నిక్, అంతరంగ టెక్నిక్ ఈజ్ స్ట్రాంగర్ దాన్ నిత్య టెక్నిక్, అపవాద టెక్నిక్ ఈజ్ స్ట్రాంగర్ దాన్ అంతరంగ టెక్నిక్. ఉత్తరోత్తరం బలీయ. పర ఈజ్ పర, బిట్వీన్ పర అండ్ అపవాద టెక్నిక్, అపవాద టెక్నిక్ హ్యాస్ టు బి యూస్డ్. ఇదానీ అత్ర విప్రతిషేధే పరం కార్యం సూత్ర సంఖ్య ఏతేషు చతుర్షు సూత్రేషు న ద్రష్టవ్య, ఉత్సర్గాపవాద న్యాయ ఏవ స్వీకర్తవ్య. తత్ కథం న్యాయతే ఇత్యుక్తే అత్ర ఉత్సర్గాపవాద నియమ అస్తి, ప్రకరణశః అస్తి. ఏవం ఇదానీ సుజాత భగిని భవత్యాః సంశ తత్ క్లారిటీ ఆవశ్యకం ఆసీత్, ఆగతం వా? ఏవం అత్ర అతో భిస ఐస్ ఇత్యత్ర అనేకాల్త్వాత్ సర్వాదేశః ఇతి రామైః ఇతి రూపసిద్ధిః. ఇదానీ నూతన పాఠః, ఏతావత్ పర్యంతం పాఠితం, ఇతోపి అష్టనిమేషాః సంతి. కుర్మః, తత్ సులభమేవ అస్తి. న్యేర్యః ఇతి సూత్రం విద్యతే. న్యేర్యః ఇత్యత్ర న్యేహ యః ఇతి పదద్వయం విద్యతే. న్యేర్యః ఇతి సప్తమాధ్యాయస్య ప్రథమపాదస్య త్రయోదశతమం సూత్రం. అంగాధికారే విద్యతే, అంగాధికారః అస్తి. షష్టాధ్యాయస్య చతుర్థపాదాదారభ్య సప్తమాధ్యాయస్య పర్యంతం అంగాధికారః విద్యతే. ఏవం అంగస్య కార్యం భవతి, న్యేర్యః ఇతి అంగకార్యం. ఇదానీం అంగకార్యం నామ ప్రకృతిః భవేత్, ప్రత్యయః భవేత్. అంగః ప్రత్యయస్య యస్మాత్ ప్రత్యయవితి తదాది ప్రత్యయంగం. తత్ ప్రత్యయ యదా భవతి ప్రకృతిః అంగం ఇతి ఉచ్యతే సామాన్యతయా. ఇదానీం అథోబిస ఐస్ ఇతి అతః ఇతి అనువర్తతే. ఏవం అతః అంగస్య నేహ యః ఇతి, అతః అంగాత్ పరస్య. అతః ఇతి అత్ర అతః ఇతి పంచమి, అతః అంగాత్ పరస్య. అతః బిస ఐస్ ఇత్యత్ర అతః ఇతి పంచమి, పంచమీ ఏవ స్వీక్రియతే అత్రాపి. అతః అంగాత్ పరస్య నేహ యాదేశః. నే కుత్ర అస్తి? సు ఔజస్ అమ్ ఔషస్ తాభ్యాం బిస్ నేభ్యాం బిస్. చతుర్థీ విభక్తి ఏకవచన వివక్షాయాం నే ఇతి ప్రత్యయః ఆగచ్చతి. రామ జ్ఞే ఇతి స్థితే, తత్ర జ్ఞే ఇత్యత్ర జ్ఞే ఇతి లషక్వతద్ధితే ఇతి నకారస్య ఇత్సంజ్ఞా విద్యతే. ఇత్సంజ్ఞాసూత్రాణి తత్ర ఝటితి కార్యం కుర్వంతి. తత్ర ఇత్సంజ్ఞాసూత్ర ఇస్ లైక్ వైరస్. यथा वायरस झटिति एक इफ देयर इज अ चांस फॉर वायरस टू ग्रो वायरस व्हाट इट विल डू इट विल एक्सपैंड एंड इट विल ग्रो एंड इमीडिएटली डुप्लीकेट सेम वे बैक्टीरिया आल्सो यथा तथैव इत्संज्ञा सूत्राणि अन्येषां सूत्राणां आगमनात् पूर्वमेव इत्संज्ञा सूत्राणि झटिति आगत्य कार्यं कुर्वन्ति रामाज्ञे लशक्वतद्दिते ज्ञे इत्यत्र कवर्गः लशक्वतद्दिते इत्यत्र इत्यस्य सूत्रार्थः कः सूत्रार्थः हा तद्दितवर्जा अतद्दिते लाशकु अतद्दिते तद्दितवर्ज के के वर्णाः प्रत्याद्याः लाशक लाशक वर्गाः हा इतः स्युः हा एते वर्णाः इतः स्युः अत्र कः वर्णः अस्ति नकारः नकारः कवर्गवर्णः कवर्गीयः कख गगन तत्र ज्ञे इत्यस्य इत्संज्ञा अस्ति इत्संज्ञा प्राप्त्यनन्तरं किं भवति तस्य कार्यमेव तस्य लोपः इति सूत्रेण लोपः भवति एवं राम ये इति स्थिते इदानीं ज्ञेर्यः इत्यत्र ज्ञेर्यः इत्यत्र ज्ञेः यादेशः य आदेशः ज्ञेः य आदेशः राम य इति भवति सिम्पल् कुत्र भवति अतः अङ्गात् अतः भवेत् इत्युक्ते ह्रस्व अकारमेव भवेत् अङ्गात् परस्य अङ्गाधिकारः भवेत् तदा एव राम इत्यस्य अङ्गसंज्ञा भवेत् अङ्गसंज्ञा प्राप्त्यनन्तरमेव यकारः अत्र प्रक्रियालेखनसमये तत्र राम इत्यस्य प्रातिपदिकसंज्ञा ज्ञे इत्यस्य द्वेकयोर्द्विवचनैकवचने इत्यनेन ज्ञे इत्यस्य एकवचनविवक्षायाम् एतत् सर्वं लेखनीयम् प्रक्रियां लिखन्तु रामाज्ञे इत्यत्र ओन्ली फोर् स्टेप्स् यु रैट् रामाज्ञे रामाये रामाय रामाय इफ् यु रैट् ओन्ली फोर् स्टेप्स् इफ् देर् इस् 10 marks यु विल् गेट् 2 marks फार् 2.5 marks आर् 4 marks फोर् स्टेप्स् 10 marks यदि अस्ति चेत् प्रक्रिया कृते तत्र दश अङ्कानि विद्यते चेत् विद्यत् अस्माभिः राम इत्यस्य प्रातिपदिकसंज्ञा रमधातोः इत्यस्मात् तस्मात् आरम्भः करणीयः अत्र स्लैड् मध्ये सर्वं न दर्शितम् भवत्यः अत्र अवश्यं लेखनसमये तादृश अभ्यासः एकस्य शब्दस्य कृते रामशब्दस्य कृते अवश्यं आल् स्टेप्स् फार् वन् शब्द हेस् टु बि डन् एकस्य शब्दस्य कृते तदेव असैन्मेण्ट् वा टेस्ट् रूपेण आगच्छति अनन्तरम् इदानीमेव लिखित्वा स्थापयतु यत् पृच्छामि तदेव अटाच् कृत्वा प्रेषयतु परन्तु सम्यक् लिखन्तु राम इत्यस्य प्रातिपदिकसंज्ञा तदनन्तरं द्वेकयोर्द्विवचनैकवचने सर्वं वक्तव्यम् एकवचनविवक्षायां ये अनन्तरं लशक्वतद्दिते नकारस्य तस्य लोपः राम इत्यस्य अङ्गसंज्ञा भवेत् अङ्गसंज्ञा इत्युक्ते अङ्गसंज्ञासूत्रं किम् यस्मात् प्रत्ययविधिस्तदादि प्रत्ययङ्गम् इति रामस्य अङ्गसंज्ञा प्राप्ते अकारान्तत्वात् ह्रस्व अकारान्तत्वात् अतः इत्यत्र तपरस्तत्कालस्य इत्यनेन ह्रस्वः अकारस्य स्वीकरणे राम इत्यत्र ह्रस्व अङ्गात् ह्रस्व अकारान्तः अस्ति इति निर्णीते हा ज्ञेः यादेशः भवति ज्ञे इत्यस्य यादेशः य आदेशः अनन्तरं सुपि च इति दीर्घः सुपि च इत्यत्र दीर्घः कथम् आगच्छति इति प्रश्नः सुपि च इति सूत्रस्य अर्थः कः एषः प्रधानः अंशः सुपितः सुपिचः सुपिच इति सूत्रस्य अर्थः कः हा ययादौ सुपि अतो अङ्गस्य दीर्घः स्यात् इदानीम् अतः अङ्गः अस्ति राम యయాది అస్తి అస్తి వా యయాది అస్తి యకార యయాది యకార యై వర్ణే అస్తి వా మహేశ్వర సూత్రేషు యై అస్తి కిల హయవరట్ జభై అస్తి కిల సో యై వర్ణ అస్తి యకార యకార యై వర్ణ అస్తి అత యయాదౌ అనంతరం సుటిచ ఇతి ఇతి సూత్రే కిం కిం తత్ర ద్వౌ ద్వౌ గుణౌ నియమౌ అపేక్షితౌ ఇతి ఉక్తవాన్. ద్వితీయ కహ సుప్రత్యయ భవేత్. సమీచీనం. ఏషః ప్రధాన అంశ సుప్రత్యయ భవేత్. ఇదానీం య ఇతి ఆదేశః సుప్రత్యయ వా య ఇతి ఆదేశః సుప్రత్యయ వా ప్రశ్న. సుప్రత్యయ నామ సుఔజస్ పట్టి సుఔజస్ పట్టికాసు విద్యతే తత్ర సుఔజస్ ఇది పరిగణనం కృతం అస్మాభిః. సుఔజస్ అం ఔషస్ తాభ్యాంబిస్ ఞేభ్యాంబిస్ ఞే ఇత్యత్ర య యభ్యాంబిస్ ఇది అస్మాభిః ఉక్తం వా? న ఉక్తం. కుత్రాపి యకారః సుప్రత్యయః ఇది న నిర్దిష్టః. ఇదానీం ప్రశ్నః ఆగచ్చతి, తర్హి సుపిచ ఇతి సూత్రస్య ప్రవృత్తిః కథం? రామాయ ఇది సుపిచ ఇతి దీర్ఘః ఇతి వ్యాఖ్యానకర్తారః వదంతి. ఇహ స్థానివద్భావేన యాదేశస్య సుప్త్వాత్ సుపిచ ఇతి దీర్ఘః. స్థానివద్భావః నామ కిం? స్థానివద్భావః నామ కిం ఇతి ప్రశ్నే కృతే అగ్రిమసూత్రం స్థానివత్ ఆదేశః అనల్విధౌ ఇతి ఇతి సూత్రం విద్యతే. స్థానివద్ ఆదేశో అనల్విధౌ ఏతత్ కించిద్ ఉక్త్వా అగ్రిమకక్షాయాం పునః వక్ష్యామి, చింతాం మా కుర్వంతు. పునః స్థానివత్ ప్రకరణం పునః ఉక్త్వా ప్రారంభం కరోమి అగ్రిమకక్షాయాం, పరంతు ఇదానీమపి కించిద్ శృణ్వంతు. యతోహి చత్వారి దినాని సంతి మధ్యే, తత్ర కించిత్ అస్మాభిః కించిత్ పఠితుం శక్యతే, అతః మయా క్రియతే. స్థానివద్ ఆదేశో అనల్విధౌ ఇత్యత్ర స్థానివద్ ఆదేశః అనల్విధౌ ఇతి త్రీణి పదాని సంతి. ఇదానీం సంజ్ఞా చ పరిభాషా చ విధిర్నియమే ఏవ చ అతిదేశో అధికారశ్చ సూత్రం షడ్విధం సూత్రముచ్యతే య సూత్రం సూత్రవిదో విదుః ఇత్యాది షడ్విధ సూత్రం అస్మాభిః అధీతం. సంజ్ఞాసూత్రాణాం విషయే అస్మాభిః జ్ఞాతం. పరిభాషాసూత్రాణాం విషయే పరిభాషాసూత్రాణాం ఉదాహరణం జ్ఞాతం. విధిసూత్రాణాం ఉదాహరణం ఇకో ఎణచి అతో బిసాయిస్ ఇత్యాది సూత్రాన్ని విధిసూత్రాన్ని సంతి. విధి ఇత్యుక్తే కార్యం కుర్వంతి. సంజ్ఞా పరిభాషాసూత్రం విధ్యుపకారకం భవతి, విధిసూత్రాణాం ఉపకారం కుర్వంతి. నియమః నియమసూత్రం తు విధి ఇత్యస్యైవ కించిద్ ఎక్స్టెండెడ్ ఫారం అస్తి. అధికారసూత్రం అంగస్య ఇతి అధికారసూత్రం విద్యతే. ప్రత్యయః పరశ్చ ఇతి అధికారసూత్రం విద్యతే. ఇదానీం అధికారసూత్రమపి జ్ఞాతం అస్మాభిః. పరంతు అతిదేశసూత్రం నామ కిం? అతిదేశసూత్రస్య లక్షణం కిం? అతిదేశం నామ కిం? అతిదేశం స్థానివద్ ఆదేశో అనల్విధౌ ఇతి సూత్రం అతిదేశసూత్రం. అతిదేశం నామ తత్ర ఉచ్యతే కిల పుత్రః పితావత్ అస్తి, పుత్రః పితావత్ అస్తి. ఏవం పితా పితుః యాని పితుః యా యా ఏ గుణాః సంతి తాన్ గుణాన్ పుత్రే దృష్ట్వా కిం ఉచ్యతే? పుత్రః పితావత్ అస్తి. యథా పితా యథా పితుః స్వభావః నోచేత్ యథా పితా వ్యవహారం కరోతి తథైవ పుత్రస్యాపి వ్యవహారః. ఏవం మాతా పుత్రీ మాతా ఇత్యాది అస్తి. కిం క్రియతే అతిదేశ అతిదేశ ఏతదేవ అతిదేశమితి ఉచ్యతే. తత్ర పితుః గుణాః పుత్రే ఆరోప్య ఆరోపణం, తత్ర ఆరోపణం వా కిమపి आरोपणम् आरोपणम् क्रियते यथा पिता कार्यं करोति तथैव एषः इति इदानीम् एषः एकम् उदाहरणं विद्यते तत्र सुजाता भगिनी परह्यः अस्माकं गृहम् आगतवती बेङ्गलूरुनगरं प्रति तस्याः पिता उक्तवान् श्राद्धकार्यं कारयितुम् अस्माकं पुरोहितः अस्ति सः सी वि रामन्नगर् मध्ये अस्ति यदा श्राद्धकार्यं कर्तुं करणीयं भवति तदा अहं तं पृच्छामि भवान् कृपया आगच्छतु श्राद्धं कारयतु इति सः श्राद्धस्य आह्वानं ददाति सुजाता भगिन्याः पिता तदा सः वाद्यार्थिं करोति तस्य तद्दिने क्लेशः अस्ति सः किं करोति स्वशिष्यं प्रेषयति शिष्यः आगच्छति श्राद्धं कारयति श्राद्धः सम्पूर्णः भवति इदानीं सुजाता भगिन्याः पिता वाद्यार् गृहात् आगतवान् शिष्यः इति कारणात् वाद्यार् मध्ये वाद्यार् विषये या श्रद्धा विद्यते सैव श्रद्धां स्वीकृत्य सः श्राद्धं करोति इदानीं शिष्यः आगतः अहं श्राद्धं न करोमि इदानीं शिष्यः सम्यक् नास्ति यदि सः सम्यक् नास्ति सः विषयः अन्यः अहं समीचीनशिष्यः यः अस्ति तत् समर्थः शिष्यम् एव प्रेषयति इति मत्वा तादृश अजम्पशन् कृत्वा अहं स्थानिवत्प्रकरणस्य विवरणं करोमि शिष्यः शिष्यस्य आसनादिव्यवहारम् शिष्यः यदा आगच्छति वाङ्गोवाद्यारे कृपया अन्तः आगच्छन्तु उपविशन्तु आचार्यस्य कृते करोति शिष्यस्य कृते अपि करोति यथा अद्य अस्मिन् दिने श्राद्धकार्यं कर्तुम् एषः शिष्यः आचार्यरूपेण आगतः अतः आचार्यस्य कृते ये ये उपचाराः सः करोति कर्तव्याः सैव उपचाराः शिष्यस्यापि करोति वाङ्गो वाद्यारे उल्लवाङ्गो उक्कारङ्गो उपविशन्तु इति तस्यापि भवति अस्यापि भवति तस्य कृते बृहत्फलका न स्थापयति फलकं न स्थापयति अस्य शिष्यस्य कृते लघुफलकं स्थापयामि एषः शिष्यः सः आचार्यः सः श्रेष्ठः एषः न श्रेष्ठः इति एतावच्चिन्तनं न करोति सः अवनक् फलः पोड्रे इवर्क् पाय् पोड्रे इति सः न करोति एवम् आचार्यः किं करोति आचार्यः वदति एन्नाल इनि वरमुडिल्ल अद्य अहम् आगन्तुं न शक्नोमि अहं मम शिष्यं प्रेषयामि सः सम्यक् श्राद्धकार्यं कारयति इति दूरवाण्यां सः वदति एषः एव स्थानिवत् प्रकरणं लौकिकन्याये यदस्ति एषः एव स्थानिवद्भावः स्थाने आचार्यः नास्ति शिष्यं प्रेषितवान् इदानीम् आदेशः अतिदेशसूत्रं नाम स्थानिवत्प्रकरणस्य उदाहरणम् एतत् शिष्यगुरु इदानीम् आदेशः स्थानिवत् स्यात् इति नियमः इदानीं ज्ञे इत्यस्य य आदेशः स्थानिनि ये गुणाः सन्ति ते सर्वे गुणाः आदेशे अपि भवन्ति इति स्थानिवत्प्रकरणं स्थानिवदादेशः अनल्विधौ आदेशः स्थानिवत् स्यात् स्थानिनि ये गुणाः सन्ति आदेशे अपि तानि गुणानि अपि सन्ति इदानीं गुणः कः गुणः अपेक्षितः अस्माभिः आदेशे द्वौ गुणौ अपेक्षितौ ययादिः भवेत् सुप्त्वं भवेत् सुप् सुप् സർവേഷാം സുപ്രത്യയാനാം മധ്യേ സുപ്ത്വധർമ്മ അസ്തി. ഇതാനീ മനുഷ്യസ്യ മനുഷ്യത്വം അസ്തി. മനുഷ്യഃ മനുഷ്യഃ ഭവതി കിമ കഥം ഭവതി മനുഷ്യത്വം തസ്യ അസ്തി അതഃ സ മനുഷ്യഃ. ഏവം സുപ്രത്യയാനാം സുപ്ത്വധർമ്മഃ അസ്തി. ദ പ്രോപ്പർട്ടി ഓഫ് ബീയിംഗ് എ സുപ്രത്യയ ദാറ്റ് ഈസ് സുപ്ത്വ. സുപ്ത്വധർമ്മഃ യകാരേ സ്ഥാനിവത് സ്ഥാനി ഞേ ഇത്യസ്യ ആദേശഃ യകാരഃ ആദേശഃ അസ്തി ഞേ ഇത്യസ്യ അസ്തി. അതഃ സുപ്ത്വധർമ്മഃ സ്ഥാനിവത് സൂത്രേണ സ്ഥാനിവത് ഭാവേന സ്ഥാനിവത് ആദേശഃ ഇതി സൂത്രാത് ആദേശേ അപി സ്ഥാനിവത് സ്ഥാനിനി യേ ധർമ്മാഃ സന്തി താഹ ധർമ്മാഃ സ്വീകൃത്യ അത്ര സുത്വധർമ്മമപി സ്വീകൃത്യ അസ്മാഭിഃ കിം ക്രിയതേ ദീർഘഃ ക്രിയതേ. സ്ഥാനിവത് ഭാവേന യാദേശസ്യ സുപ്ത്വാത് സുപി ച ഇതി ദീർഘഃ ഇതി അന്തിമവാക്യം തത്ര. ഇദാനീം ഹാ തത്ര സ്ഥാനിവത് ആദേശോ അനൽവിധൗ ഇതി സൂത്രസ്യ പഠനം അസ്മാഭിഃ കരണീയം. അനൽവിധൗ ഇതി കിമർത്ഥമസ്തി തത്സർവം അഗ്രേ അഗ്രിമകക്ഷായാം പശ്യാമഃ. ഇദാനീം ആദേശഃ സ്ഥാനിവത് സ്യാത് അത്ര സമാസഃ കഥമസ്തി എതത് സർവം അഗ്രിമകക്ഷായാം പശ്യാമഃ. പരന്തു രാമായ ഇതി പ്രക്രിയാം സമാപയാമഃ. രാമ ജ്ഞേ ഇതി അസ്തി അത്ര യകാരസ്യ യാദേശഃ ജ്ഞേ ഇത്യസ്യ യാദേശഃ സുപി ച ഇതി ദീർഘ കരണീയഃ അസ്മാഭിഃ. യയാദോ സുപി പരേ അതോ അംഗസ്യ ദീർഘ സ്യാദിതി സുപി ച സൂത്രസ്യ അർത്ഥഃ. കിന്തു യ ഇത്യസ്യ സുപ്ത്വം നാസ്തി ന്യയാദിത്വം അസ്തി. സുപ്ത്വം നാസ്തി ന്യയാദിത്വം അസ്തി സുപിചായതി ദീർഘ കഥം കർത്തും ശക്യതേ ഇതി പ്രശ്നഃ. തദാ യ ആദേശഃ ആദേശഃ നാമ യ ഇതി ആദേശഃ സ്ഥാനിവത് ന്യേവത് സ്യാത് ഇത്യനേന ഇത്യനേന സൂത്രേണ സ്ഥാനിവത് ആദേശഃ സ്ഥാനിവത് സ്യാത് ഇത്യനേന സൂത്രേണ തസ്യാപി സുപ്ത്വ ആരോപഃ ക്രിയത്തെ സുപ്ത്വം ആഗച്ഛതി അനന്തരം ദീർഘ ഭവതി രാമായ ഇതി ഭവതി. എതത് സർവം അഗ്രിമകക്ഷായാം പുനഃ വദാമി. അസ്തു ഇദാനിം അവഗതം വാ രാമായ. തദർത്ഥമേവ ഉക്തവാൻ ഇത് സംജ്ഞാ സൂത്രാണി ഝടിതി ആഗത്യ കാര്യം കുർവന്തി തേഷാം കാര്യം തേന ത്യജന്തി. യഥാ അത്ര തേഷാം കാര്യം തേ അവശ്യം കുർവന്തി. ഞേ ഇത്യസ്യ ഏകാര കരണേന യദി ലശക്വതദ്ധിതെ ഇതി സൂത്രസ്യ പ്രവൃത്തിഹ അസ്തി അസ്മാഭിഹി ന ക്രിയതെ ചേത് തത്തു കാര്യം തു ഭവത്യേവ. വാട്ട് എവർ ഇഫ് സൂത്ര ഇഫ് എനി സൂത്ര ഈസ് അപ്ലിക്കബിൾ അറ്റ് എനി പോയിന്റ് ഇൻ ടൈം ദാറ്റ് സൂത്ര വിൽ കം ആൻഡ് ഡു ഇറ്റ്സ് വർക്ക്. ഇഫ് ദ സൂത്ര ഷുഡ് നോട്ട് ഡു ഇറ്റ്സ് വർക്ക് ദർ ഷുഡ് ബി എൻ ഉത്സർഗ ദർ ഷുഡ് ബി അപവാദ ദർ ഷുഡ് ബി സംതിങ് സം റൂൽ വിച്ച് സെൽസ് ഡോണ്ട് ഡു ദിസ് വർക്ക്. സൂത്രസ്യ കൃതേ കാര്യം മാ കുറു ഇതി വക്തവ്യം തദാ ഇതി അന്യസ്മാ സൂത്രാ വക്തവ്യം തദാ ഏവ തേ തൂഷ്ണീം ഉപവിശന്തി. സൂത്രം നാമ തേ കാര്യം കുർവന്ത്യേവ തേഷാം സ്വഭാവഃ കാര്യകരണമേവ യസ്യ കസ്യാപി സൂത്രസ്യ സൂത്രസ്യ പ്രവൃത്തിഹി ഭവേദേവ ത്യക്തും ന ശക്യതേ. തത്ര എതദ്വിഷയേ വദാമി പ്രത്യയലോപേ പ്രത്യയലക്ഷണം ഇത്യപി അസ്തി. ലോപേ കൃതേ തത്ര ലോപഃ ഇത്യുക്തേ അസ്മാഭിഃ ഡെഫിനിഷൻ കിം ദത്തം అదర్శనం లోపః. అదర్శనం లోపః, అదర్శనం నామ ప్రసక్తస్య అదర్శనం లోపః, లోపసంజ్ఞం స్యాత్. తదస్తి పరంతు న దృశ్యతే తథా అత్రాపి. రామ ఏ ఇత్యత్ర, ఏ ఇత్యత్ర యద్యపి నకారస్య లోపః కృతః, న్యేత్వం ఆదేశకరణార్థం న్యే అవశ్యకం కిల. న్యేర్యః, న్యేర్యః ఇత్యత్ర ఏ అవయవః అస్తి, న ఏ ఇతి అవయవౌ ద్వౌ స్తః, అవయవత్వం అస్తి. ప్రత్యయలోపే ప్రత్యయలక్షణం ఇత్యపి నియమః అస్తి, తదపి అగ్రిమకక్షాయాం వదామి, ఏతత్ అవశ్యం వదామి. యకారాదేశ పరంతు అత్ర అంశ ప్రధాన అంశ ఇత్సంజ్ఞాసూత్రాన్ని ఝటితి కార్యం కుర్వంతి ఇత్యుక్తే తేషాం అవరోధకః కిమపి నాస్తి, ఇత్సంజ్ఞాసూత్రస్య అపవాదః ఇత్యాది కిమపి నాస్తి. ఇదానీం విధీనాం అపవాదః భవతి, ఏషః అహం విధిం కర్తుం ప్రయత్నం కరోమి తర్హి కోపి అన్యః ఆగత్య. అత్ర న దృశ్యతే, అత్ర అత్ర ప్రాయః న దృశ్యతే, పరంతు ఏకస్య లషక్వ తద్వితే ఇతి సూత్రస్య ప్రవృత్తిః తు భవత్యేవ. Mm-hmm.